ॐ येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॐ श्रीगुरुभ्यो नमः हरिः ॐ सर्वेभ्यः नमः
नमस्कार भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र चित् अपि च न प्रत्ययद्वयं तत्र चित् अपि च न तयोः विषये तत्र रूपाणि दृष्टवन्तः पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च तदनन्तरम् अभ्यासान् अपि कृतवन्तः प्रायशः इदानीं तत्र षष्ठ अभ्यासः इति मन्ये पेज् 82 मध्ये तत् करणीयम् अस्ति इति मन्ये वेदा भगिनी नमस्कार भगिनी
नमस्ते महोदय सारि विलम्बेन आगतवती
चिन्ता मास्तु भगिनि चिन्ता मास्तु भगिनि अस्तु तर्हि तत्र नरेश महोदय तत्र आरम्भं करोति वा महोदय षष्ठ अभ्यासः
महोदय षष्ठ अभ्यास पेज् 82 अत्र तत्तत्सङ्ख्याकं गीताश्लोकं परिशील्य रिक्तस्थानम् उचितैः चन प्रत्यक्तशब्दैः पूरयत
एतत् कृतवन्तः अथवा न कृतवन्तः महोदय
अहं चिन्तयामि कृतवन्तः
कृतवन्तः खलु
न न
न
किन्तु तत्र मनुष्याणां सहस्रेषु यतति सिद्धे इति तत्र
अशीतितमे पुटे अपि अस्ति महोदय मनुष्याणां सहस्रेषु
ओ अस्तु भगिनि हा अतः अस्तु अस्तु भगिनि अस्तु धन्यवादः भगिनि धन्यवादः अतः तत्र भ्रमः जातः मम अस्तु धन्यवादः भगिनि हा अस्तु अतः तत्र भगवद्गीता पुस्तकं समीपे अस्ति चेत् सौलभ्यं भवति
करोमि प्रथम आश्चर्यवत् पश्यति एनम् आश्चर्यवत् वदति तथैव चान्यः
तत्र आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथैव च अन्यः अपि द्वितीयमपि सः एव श्लोकः
आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनं वेद न चैव कश्चित्
हा कश्चित् इति समीचीनं महोदय अतः तत्र द्विवारं तत्र कश्चित् इति भवति कश्चित् इति छित् प्रत्ययस्य प्रयोगः तत्र विभक्ति का
प्रथमविभक्ति
अनन्तर तत्र आश्चर्यवत् पश्यति कश्चित् एनम् तत्र एनम् इति द्वितीया विभक्ति अपि कः पश्यति न जानीमः कश्चित् पश्यति अतः तत्र प्रथमविभक्तिकर्तृपदं समीचीनं महोदय तत्र अर्थः अपि तत्र पुस्तके प्रायशः अस्मिन् पुस्तके नास्ति किन्तु भवतां पुस्तके प्रायशः अर्थः अस्ति तत्र आत्मा इति विषयः तत्र आत्मा
पश्यामि
अस्तु तर्हि अस्तु आत्मा इति विषयः अस्ति अस्तु तर्हि अग्रे लक्ष्मी भगिनी अग्रिमं पठति वा अस्तु तर्हि तत्र गीताञ्जलि भगिनी अग्रिमम्
आं महोदय
श्रूयते वा महोदय
ओ अस्तु अस्तु लक्ष्मी भगिनी एकनिमिषे तत्र गीताञ्जलि भगिनी वदतु
अनन्तरम् अहं वदामि
अनन्तरं पठतु भगिनि अस्तु
अस्तु महोदय तृतीयबिन्दु नहि इति दत्तं नहि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत् इति प्रथम
प्रथमभागः
भागः अस्ति नहि कश्चित् तदपि कश्चिदेव प्रथमा विभक्ति
तत्र क्षणमपि जातुं तिष्ठति अकर्मकृत्
अकर्मकृत्
एकं क्षणमपि तत्र वयं न स्थातुं शक्नुमः तत्र कर्म विना
न स्थातुं
शक्यते समीचीनं भगिनि अस्तु अतः तत्र तत्रापि कश्चित् इति प्रथमविभक्ति एव
प्रथमा
समीचीनं भगिनि अस्तु लक्ष्मी भगिनी अग्रे
नादत्ते कस्यचित् पापं न चैवं सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः
तत्र
कस्यचित्
तत्र विभक्ति का
षष्टिविभक्ति
कस्यचित् इति षष्टिविभक्ति समीचीनं भगिनि अस्तु इदानीं वेदा भगिनी अग्रे प्रिया भगिनी नमस्कारः
नमस्ते महोदय कुत्र
382 भगिनि
अस्तु
षष्ठ अभ्यासः
नहि कल्याणकृत् नहि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति पञ्चमबिन्दुः अस्ति वा पञ्चमबिन्दुः वा
सत्यं
कल्याण कश्चित् दुर्गतिं तात गच्छति
तत्र चित् अथवा चन प्रत्ययस्य पदं किम् अस्ति अत्र कश्चित् तत्र विभक्ति का
कश्चित् इत्युक्ते प्रथमा विभक्ति
कल्याणकृत्
कश्चित् तात गच्छति
समीचीनं भगिनि अस्तु अस्तु पुनः तत्र कर्तृपदमेव तत्र अस्तु उषा भगिनी अग्रे
मनुष्याणां कष्टेषु यतति सिद्धये मनुष्याणां कष्टेषु कश्चित् यतति सिद्धये प्रथमाविभक्ति एकवचनं
महोदय वदतु भगिनि एकवारं तत्र
मनुष्याणां कश्चित् यतति सिद्धये कश्चित्
प्रथमाविभक्ति कश्चित् यतति सिद्धये तत्र समीचीनं प्रयत्नं करोति समीचीनं भगिनि अस्तु प्रिया भगिनी इदानीम् अग्रिमं कर्तुं शक्नोति वा तत्र चिच्छन प्रत्ययः कुत्र अस्ति इति वक्तव्यं तावदेव तत्र भगवद्गीतायाः श्लोके
अस्तु महोदय प्रयत्नं करोमि जगताम् अपि सिद्धानां कस्मिन् मां वेति तत्त्वतः कस्मिन् तदेव अस्ति नो
चेत्
कश्चिन्
तत्र 7.3 इति दृष्ट्वा तत्र यततिमपि सिद्धानां कश्चित् मां वेति तत्त्वतः कश्चित् एव
तत्र सन्धिः अस्ति कश्चित् मां वेति तत्त्वतः इति
इति समीचीनं भगिनि तत्र कश्चित् योगः मां तत् किं भवति
कस्मिन् मां
कश्चित् न कश्चित् इति एव अस्ति कश्चित् योगः मां तत्र अन्तिमवर्णः कः कश्चित् इति
तकारः
तकारः अग्रे माम् इति अस्ति तत्र मकारः अतः तत्र किं भवति सन्धिकार्यं किं भवति तत्र
तत्र मकारस्य परिवर्तनं भवति तकारस्य
तिष्ठति हा मकारः तिष्ठति
ओ तकारस्य परिवर्तनं भवति तकारस्य पञ्चमवर्णः
हा समीचीनं भगिनि अतः तत्र किं भवति तत्र कश्चिन् इति कश्चिन् इति भवति तावदेव हा कश्चिन् मां यत् वेत्ति कश्चिन् मां वेत्ति तत्त्वतः समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे नरेश् महोदय नरेश्
महोदय अष्टमम् अमीः त्वां सुरसंज्ञा विशन्ति केचित् भीताः प्राञ्जलयोः
प्राञ्जलयोः
गृह्णन्ति
प्राञ्जलपो इति खलु
न प्राञ्जलयोः
अस्तु प्राञ्जलयोः
गृह्णन्ति
गृह्णन्ति अस्तु
केचित् अस्ति
केचित् हा इदानीं तत्र केचित्
प्रथमविभक्ति बहुवचनं
बहुवचनं समीचीनं महोदय अस्ति
अग्रे अग्रे अस्ति विलग्नदशनान्तरेषु
हा तत् अन्य करोति अस्तु तत्रापि केचित् एव इति वा अस्तु
केचित् तत्रापि केचित् अस्ति
केचित् एव अस्तु समीचीनं तत्र 27 मध्ये हा केचित् अस्तु विलग्न दशान्त समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी
अस्तु ध्यानेनात्मनि पश्यन्ति केचित्
आत्मना
केचित् इति अस्ति केचित् प्रथमाविभक्ति बहुवचनरूपं
केचित् पश्यन्ति तत्र इति अतः तत्र बहुवचनं पश्यन्ति समीचीनं भगिनी अस्तु गीताञ्जलि भगिनी अग्रे अन्तिमम्
आं महोदय तृतीय अध्याये तत्र हे पार्थ मे त्रिषु लोकेषु कर्तव्यं नास्ति इति हे पार्थ मे इत्युक्ते मे मम वा मे त्रिषु लोकेषु किञ्चन कार्यं
कर्तव्यं
कर्तव्यं नास्ति
किञ्चन कर्तव्यं नास्ति किन्तु तत्र अतः तत्र किञ्चन इति तत्र
किञ्चन कर्तव्यं नास्ति नास्ति तु अकर्मक कर्तव्यं विशेषण कर्तव्यम् इति पदस्य विशेषणमस्ति वा महोदय
कर्तव्यं नास्ति मम कर्तव्यं नास्ति किं कर्तव्यं किञ्चन कर्तव्यमपि
किञ्चन
अतः तत्र किञ्चन इति लिङ्गं किं
प्रथम एव लिङ्गं कर्तव्यं तु नपुंसकलिङ्गं महोदय इति न
किञ्चन सत्यम् अतः किञ्चन अपि नपुंसकलिङ्गपदं
नपुंसकलिङ्गमपि
समीचीनं एकवचनं किञ्चन कर्तव्यं नास्ति समीचीनं भगिनि अस्तु उत्तमं वंशीसुधा भगिनी नमस्कारः
नमस्ते महोदय. अद्य अपि शृणोमि महोदय. पुत्र्याः परीक्षा अस्ति अद्य.
यदि पुस्तके कुत्र स्मः इति.
अस्ति, पुस्तकमस्ति परन्तु वक्तुं न शक्नोमि.
अस्तु भगिनि, अस्तु,
धन्यवादः.
अस्तु, अग्रे वेदा भगिनि, अग्रिम अभ्यासः.
सारि, सप्तमबिन्दु. आवरणे विद्यमानेषु रूपेषु उचितेन रूपेण रिक्तस्थानं पूरयत. उदाहरणमस्ति, केचन छात्राः सर्वदा जल्पन्ति. छात्राः अस्ति, तदेव तत्र बहुवचनरूपमस्ति. केचन, केचन छात्राः.
इदानीं भगिनि तत्र एकं करोतु, अतः अस्माकं कार्यं तत्र किम् इति एकवारं वदतु भवत्याः शब्दैः.
इत्युक्ते
तत्र अस्माकं तत्र अस्मिन् अभ्यासे कार्यं किं किं करणीयं,
किं करणीयम् अत्र अभ्यासे. ब्राकेट् बाडीस् आवरणे आवरणे कस्यचित् पदानि कस्यचित् कस्यचन न किमर्थं पदानि कस्य नपुंसकलिङ्गे कानिचित् कानिचित् पदानि तत्र दत्तमस्ति.
कानिचित्
पदानि तत्र दत्तानि. तत्र उचितपदं किम् अस्ति तत् चित्वा ब्लाङ्क्
ब्लाङ्क् इति किमस्ति तत्र वाक्यं. हा, रिक्तस्थाने रिक्तस्थाने
रिक्तस्थाने पूरयत.
रिक्तस्थानं पूरयतु. पूरयामः. समीचीनं भगिनि. अस्तु, इदानीं द्वितीयं करोतु.
द्वितीयं डाश् नाटकस्य सारांशं वद.
इदानीं तत्र नाटकस्य इति नाटकस्य विभक्ति वचनं किं
नाटकानि वा नाटकः
नाटकस्य इति पदस्य विभक्ति अपि वचनं
प्रातिपदिकं किं नाटकः वा नाटकं वा नाटकः
भवती वदतु.
नाटकः ऐ थिङ्क् नाटकः.
अस्तु, तत्र नाटकः नाटकं वा किन्तु अत्र नाटकस्य इति पदस्य विभक्ति का
षष्टि षष्टि
षष्टि एकवचनम्. अस्तु,
तदेव तत्र कस्यचित् कस्याचित् केषाञ्चित् ओके कस्यचित् नाटकः यदि पुल्लिङ्ग अस्ति चेत् तत्र कस्यचित् रूपम् आयाति. कस्यचित् नाटकस्य सारांशं वद.
अस्तु, इदानीं तत्र
तत्र नपुंसकलिङ्गम् अस्ति चेत् अपि कस्यचित् एव
आयाति. समीचीनं भगिनि, तावदेव. अतः तत्र पुल्लिङ्ग वा नपुंसकलिङ्ग वा भेदः नास्ति, कस्यचित् एव तत्र आगच्छ. समीचीनं भवति.
अग्रे पठामि वा
न समीचीनं भगिनि. धन्यवादः. धन्यवादः भगिनि. अस्तु, अग्रे उषा भगिनि.
आं महोदय. शीघ्रं गच्छ, आपणात् पुस्तकम् आनय. आपणात् पञ्चमी विभक्त्याम् एकवचने अस्ति. आवरणे कस्माचित् कस्यचित् इति दत्तमस्ति. कस्माचित् पुंलिङ्गे पञ्चमी विभक्ति एकवचने अस्ति. कस्याश्चित् स्त्रीलिङ्गे अस्ति पञ्चमी विभक्ति. कस्यचित् पुंलिङ्गे सप्तमी षष्टि विभक्त्याम् अस्ति. अतः शीघ्रं गच्छ, कस्माश्चित् आपणात् पुस्तकम् आनय इति अस्ति.
कस्माच्चित् तत्र चकारः द्वित्वं खलु. कस्माच्चित् आपणात्
पुस्तकम्
आनय. तत्र कः आपणः इति अथवा कस्मात् आपणात् इति
न दत्तमस्ति.
तत्र नाम तत्र यः कोऽपि आपणः भवतु चिन्ता मास्तु, किन्तु कस्माचित् आपणात् पुस्तकं तु आनय इति हा इति वदति. अस्तु समीचीनं भगिनि. अस्तु अग्रे प्रिया भगिनि.
अभिनेत्राः अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः. अत्र अभिनेत्र्याः इति अभिनेत्री इति पदम् इति चिन्तयामि. तस्य षष्ठी विभक्ति वा पञ्चमी वा भवितुमर्हति. अत्र काचित् कस्याश्चित् कस्यचित् अति इति अस्ति. कस्याश्चित् इति अहं चिन्तयामि तत् तदेव. कस्याश्चित् अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः.
हा तत्र कस्याश्चित् इति उक्तवती खलु.
आम्
हा समीचीनं भगिनि. कस्याः विसर्गः अस्ति. कस्याः योगच्छित् कस्याश्चित् अभिनेत्र्याः अभिमानिनः. तत्र अभिमानिनः इति एकवचने अस्ति वा बहुवचने अस्ति?
बहुवचने. अभिमानिन् अभिमानिनौ अभिमानिनः
अभिमानिनः. समीचीनं भगिनि. हा तत्र तत्र अभिमानी अभिमानिनः तत्र सम्मिलितः. कीदृश अभिमानिनः? अभिनेत्र्याः अभिमानिनः. समीचीनं समीचीनं भगिनि. उत्तमम्. अस्तु अग्रे नरेश महोदय.
महोदय पञ्चम. विद्यालयेषु चतुराः बालाः पठन्ति. विद्यालयेषु एतत्तु सप्तमी विभक्ति बहुवचनम् अस्ति. कासुचित् कस्मिंश्चित् केषुचित् 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 विद्यालयेषु चतुराः बालाः पठन्ति.
हा समीचीनं महोदय. अस्तु अग्रे लक्ष्मी भगिनी.
हा अस्तु महोदय. भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति. काः भारतीयाः? काश्चित् भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति. बहुवचने.
हा तत्र काः अपि केचित् अपि केचित् अपि भवितुमर्हति. तत्र सन्दर्भानुसारं तत्र केवलं तत्र प्रायशः तत्र वैज्ञानिका इति अस्ति वा तत्र तत्र तस्य स्त्रीलिङ्गरूपं न जानामि. हा अतः तत्र किन्तु केचित् अपि
समीचीनं
काश्चित् अपि प्रायशः समीचीनमेव. अस्तु भगिनि धन्यवादः. अस्तु गीताञ्जलि भगिनि अग्रे.
प्रधानमन्त्री मन्त्रिभिः सह समालोचयति समालोचयति. अस्तु प्रधानमन्त्री मन्त्रिभिः इति तृतीयबहुवचनं मन्त्रिन् नकारान्त अस्ति वा?
मन्त्रिभिः इति तत्र इदानीं केवलं तत्र विभक्ति अपि वचनम् इति मन्त्रिभिः इति विभक्ति का?
हा तृतीयबहुवचनं
बहुवचनं.
काभिश्चित् मन्त्रिभिः सह समालोचयति.
अस्तु हा अस्तु. इदानीं पुनः मन्त्रिभिः इति समीचीनं तृतीया. तदनन्तरं तत्र मन्त्री इति तत्र पदं तत्र पुल्लिङ्गपदं वा स्त्रीलिङ्गं वा नपुंसकं?
मन्त्री इति पुंलिङ्गं महोदय इति मन्ये. पुंलिङ्गम् अस्ति चेत् कैश्चित्
तत्र मन्त्रिन् इति नकारान्त हलन्तपदं खलु.
नकारान्त पुंलिङ्गं. हा
मन्त्री मन्त्रिण मन्त्रिणो मन्त्रिणः.
कैश्चित् मन्त्रिभिः सह
प्रधानमन्त्री. हा प्रधानमन्त्री तत्र एकवचने रूपं पश्यतु. तत्र मन्त्री इति अस्ति खलु दीर्घ इकारः अस्ति खलु. अतः गुणिवत् अतः तत्र गुणिभिः वत् तादृश. अतः तत्र कैश्चित् कैश्चित् अतः पूर्णवाक्यं वदतु.
प्रधानमन्त्री कैश्चित् मन्त्रिभिः सह समालोचयति.
कश्चित् मन्त्रिभिः सह समालोचयति
तत्र संयोगः आलोचयति एव
इति समीचीनं नाम मिलित्वा तत्र
इत्युक्ते ते आलोचनं कुर्वन्ति मिलित्वा
अस्तु समीचीनं भगिनि अस्तु अग्रे शोभा भगिनी नमस्कारः
नमस्ते महोदय क्षमतां विलम्बेन आगतवती
अस्तु भगिनि चिन्ता मास्तु 83 भगिनि
अस्तु धन्यवादः
अस्तु वेदा भगिनी अग्रे
महोदय
माधुरी
भारतीया ओके प्रधानमन्त्री
माधुरी
वित्तकोषे अधिकारिणी अस्ति वित्तकोषे सप्तमी विभक्ति प्रथमविभक्ति एकवचनं वित्तकोषः पुल्लिङ्गमस्ति तदेव तत्र कस्मिंश्चित् चित्तकोषे अधिकारिणी अस्ति
कस्मिंश्चित् तत्र कस्मिंश्चित् वित्तकोषे अधिकारिणी अस्ति तत्र अधिकारिणी इति तत्र पदस्य बहुवचनं किम् अस्ति
अधिकारिणी वित्तकोषे अधिकारिणी अधिकारिन् शब्दः वा अधिकारिन् अधिकारिणी
अधिकारिणी इति पदस्य बहुवचनं किम् अस्ति
अधिकारिणी अधिकारिण्यः
नदी नद्यौ नद्यः अधिकारिण्यः समीचीनं भगिनि तावदेव अस्तु अग्रे उषा भगिनी
आं महोदय राष्ट्रस्य अध्यक्ष इति राष्ट्राध्यक्ष क्रीडकाय पारितोषिकं प्रददाति चतुर्थीविभक्ति अस्ति क्रीडकाय क्रीडकः क्रीडकाय चतुर्थीविभक्ति एकवचने अतः राष्ट्राध्यक्ष कस्मैश्चित् क्रीडकाय पारितोषिकं प्रददाति
राष्ट्राध्यक्षः कस्मैश्चित् क्रीडकाय
पारितोषिकं
प्रददाति समीचीनं भगिनि
कस्यैचित् अपि सम्भवति
न महोदय कस्यचित् अपि भवितुम् अर्हति किन्तु तत्र क्रीडकाय इति न भवति तत्र क्रीडकाय इति स्थाने तत्र कोऽपि जानाति वा तत्र क्रीडकः इति क्रीडका वा अथवा क्रीडिका अथवा क्रीडिका इति वा क्रीडिका अस्ति चेत् इति स्वीकुर्मः तत्र अतः रूपं पदं किं भवति
क्रीडिकायै
तथा क्रीडिकायै अस्ति चेत् तत्र कस्यैचित् इति समीचीनम् अस्तु शुभो भगिनि अन्तिमम्
आं महोदय तत्र अहं नर्तकीः अभिनन्दामि तत्र नर्तकीः इति बहुवचने द्विवचने अस्ति द्वितीयविभक्ति क्षमता द्वितीयविभक्ति बहुवचने अस्ति अतः तत्र काश्चित् अहं काश्चित् नर्तकीः अभिनन्दामि
अहं काश्चित् नर्तकीः अभिनन्दामि समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनी इदानीम् अग्रिम अभ्यासः
महोदय अत्र द्वितीय बहुवचनं
सत्यं भगिनि द्वितीय बहुवचनम् अतः एव तत्र काः एव भवति खलु भगिनि एकवचने तु काञ्चित् किन्तु बहुवचने काश्चित् काश्चित् एव खलु
अस्तु
समीचीनं खलु
अस्तु समीचीनम्
अस्तु प्रिया भगिनी अग्रे
आम् चित् जन उपयुज्य कृतानि वाक्यानि परिशीलयत अर्जुनः काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान्
तत्र कीदृशीं भीतिं सः अवाप्तवान्
काञ्चित् अनिर्वचनीयां भीतिम्
तत्र अनिर्वचनीयां नाम वक्तुं न शक्नुमः वाक्ये तत्र शब्दे तत्र तस्य विवरणं न कर्तुं शक्नुमः अनिर्वचनीयां भीतिम्
अस्तु अवाप्तवान् इत्युक्ते किं महोदय
तत्र अनुभूतवान् इति
ओ अस्तु
अपि तत्र काञ्चित् इति अस्ति तत्र लिङ्गं किम् अपि विभक्तिका
काञ्चित् इति त्रिलिङ्ग काञ्चित् ओ पुल्लिङ्ग बहुवचनं द्वितीयविभक्ति अस्ति वा
द्वितीयविभक्ति पुल्लिङ्गं बहुवचनम् अपि विभक्तिका
द्वितीया
द्वितीया द्वितीया तु अस्ति किन्तु तत्र अनिर्वचनीयाम् इति पश्यतु तत्र
ओ एकवचनमस्ति ओ का अस्तु अस्तु कां परन्तु एतत् त्रिलिङ्ग अस्ति त्रिलिङ्ग बहुवचनं नास्ति एकवचनम्
एकवचनमेव समीचीनं भगिनि भीतिः इति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
अर्जुनः कृष्णं कांश्चन प्रश्नान् पृष्टवान् अत्र कान् द्वितीयविभक्ति बहुवचनं कान् कांश्चनान् कांश्चन प्रश्नान्
प्रश्नान् तत्र वयं जानीमः तत्र कान् प्रश्नान् सः पृष्टवान् न सम्यक्तया न जानीमः अथ तत्र कांश्चन कांश्चन प्रश्नान् पृष्टवान् प्रश्न एकः एव प्रश्नः इति नास्ति तत्र बहवः प्रश्नाः आसन् तत्र तान् प्रश्नान् पृष्टवान् बहून् प्रश्नान् पृष्टवान् किन्तु ते के इति न जानीमः अतः
कांश्चन
कांश्चन इति समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनि
काश्चन दत्तं महोदय
न न कांश्चन कांश्चन
ओ हा बिन्दु अस्ति
अतः तत्र कांश्चन
किञ्चित् अपि कार्यं करोमि इति तत्त्ववित् न मन्यते किञ्चित् कार्यं किं कार्यं किञ्चित् कार्यं किं द्वितीयविभक्ति एकवचनं
लिङ्गं
कार्यं नपुंसकलिङ्गं
नपुंसकलिङ्गं समीचीनं भगिनि यतो हि तत्र विशेषणम् इति कृत्वा तत्र कश्चन तत्र एतत् एतानि सर्वाणि पदानि विशेषणानि इति कृत्वा तत्र सर्वं वक्तुं शक्नुमः विशेष्यं दृष्ट्वा विशेषणस्यापि विभक्ति वचनं लिङ्गं सर्वं ज्ञातुं शक्नुमः समीचीनं भगिनि अस्तु गीताञ्जलिभगिनी अग्रे
केनचित् प्रकारेण कृष्णः अर्जुनं युद्धे प्रेरितवान् केनचित् प्रकारेण तत्र केन तृतीय एकवचनं प्रकारेण विशेषणविशेष्य कृष्णः प्रथमा अर्जुनं कर्म युद्धे प्रेरितवान् युद्धे सप्तमी प्रेरितवान् तु क्रिया तवतु
तवतु
रूपं प्रेरितवान् प्रेरितवान्
करोतु इति तत्र प्रेरितवान् युद्धं करोतु इति
प्रेरितवान्
समीचीनं भगिनि अस्तु वेदा भगिनि अग्रे
महोदय तत्र प्रथम बिन्दु अर्जुनः काञ्चित् तत्र अनिर्वचनीयान् तत्र
अनीयचनीयाम् इति
ओ वचनीयाम् अस्तु वचनी इति अनीयर् प्रत्यय महोदय
न न न तत्र तत्र वक्तुं न शक्नुमः इति अर्थे तत्र
न कीदृशपदम् अस्ति इति
अनिर् इति अस्ति किन्तु तत्र करणीयम् इति तादृश सः प्रत्ययः नास्ति अत्र अनिर् इति अस्ति सत्यं किन्तु तत्र प्रत्ययः नास्ति तत्र
महोदय तत्र विरुद्धार्थे अस्ति अस्ति वा तत्र निर्वचनीय तदनन्तरम् अनिर्वचनीय इति अनिर् इत्युक्ते नै समासः अस्ति वा महोदय
किन्तु भगिनि तत्र हा तत्र अनिर्वचनीया अनिर्वचनीयाम् इति तत्र पुनः तत्र निर्वचनीयाम् इति अर्थे एव अस्ति खलु
अर्थः तु समानेव
अर्थः तु
विरुद्धार्थक तदेव
तत्र वचनीयाम् इति पदस्य विरुद्धार्थकः वा अथवा निर्वचनीया इति पदस्य निर्वचनीय इति पदस्य विरुद्धार्थक नाम वचनीय खलु
निर्वचन तत्त्वविरुद्धः नास्ति अस्थापितं विरुद्धः अस्ति
व्यक्तं कर्तुं न शक्नुमः इति अर्थे न भवति
डिफैन् कर्तुं न शक्यते इति
तत् अकार अस्ति अतः विरुद्धः अस्ति अदर्वैस् तु वचनीया निर्वचनीया समानम् अस्ति
धन्यवादः अस्तु 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 हा तादृशमस्ति अस्तु धन्यवादः महोदय नरेश् महोदय अस्तु अतः तत्र अकारः नाम विरुद्धः अस्तु भगिनि सः एव प्रश्नः आसीत् शोभा भगिनि
आं महोदय तत्र विरुद्धः अस्ति
अकारः अकारेण विरुद्धः अस्तु
चतुर्थबिन्दु केनचित् प्रकारेण कृष्णः अर्जुनं युद्धे प्रेरितवान्
अनतत्कृतं भगिनि तत्कृतं पञ्चमः
परमेश्वरः न कस्यचित् जीवस्य पापम् आदत्ते परमेश्वरः न कस्यचित् जीवस्य पापम् आदत्ते जीवस्य तत्र जीवस्य इत्युक्ते जीवः षष्टिविभक्ति एकवचनरूपं कस्य चिच्चन् प्रयोगे अस्ति कस्यचित्
कस्यचित् समीचीनं
कस्यचन
समीचीनं अस्तु अग्रे उषा भगिनि
परमात्मा केषाञ्चन जनानां ज्ञानं प्रकाशयति जनानाम् इति बहुवचने अस्ति षष्टिविभक्त्यां केषाञ्चन परमाञ्चन जनानां ज्ञानं प्रकाशयति केषां योगः चन
केषां योगः चित् आसीत् चेत्
केषाञ्चित्
इति समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
तत्त्वज्ञानं विना कस्यचिदपि जनस्य मुक्तिः न भवति तत्र कस्य जनस्य अतः तत्र एकवचने अस्ति जनः इति जनस्य षष्ठी कस्यचित् अपि षष्ठी चित्तप्रयोगः कस्यचित् अपि अथवा कस्यचन अपि भवितुम् अर्हति तत्र तत्त्वज्ञानं विना आं महोदय तत्र विना अस्ति इति कृत्वा द्वितीया भवति तत्त्वज्ञानं विना इति अपि च कस्यचिदपि जनस्य मुक्तिः न भवति इति
समीचीनं भगिनि षष्टि एकवचनम् अस्तु समीचीनं प्रिया भगिनि अग्रे प्रिया भगिनि न श्रूयते भगिनि अस्तु
महोदय
इदानीं श्रूयते भगिनि
क्षम्यतां महोदय चतुर्विधेषु भक्तेषु केचन आर्ताः जिज्ञासवः केचन अर्थार्थिनः केचन ज्ञानिनः च अत्र निर्धारणसप्तमी इति अस्ति चतुर्विधेषु भक्तेषु केचन आर्ताः अत्र
प्रथमा विभक्ति बहुवचन पुल्लिङ्गपदमस्ति आर्ताः केचन आर्ताः इति जिज्ञासवः केचन अर्थार्थिनः केचन ज्ञानिनः सर्वत्र पुल्लिङ्गः प्रथमा बहुवचनम् इति अस्ति
बहुवचनम् अस्तु समीचीनं भगिनि तत्र एकवचने रूपाणि कानि
एकवचनः रूपमस्ति
तत्र चतुर्विधेषु अर्था
जिज्ञासु
आर्तः आर्तः
आर्तः जिज्ञासु अर्थार्थिनी
अर्थार्थी
अर्थार्थी अर्थार्थी आम् अर्थार्थी ज्ञानी
ज्ञानी समीचीनं भगिनि उत्तमं
महोदय आर्तः इत्युक्ते किं महोदय प्रथमः यः अस्ति
कष्टं
यः कष्टम् अनुभवन्ति
आर्ताः जिज्ञासवः इति तत्र अहं चिन्तयामि तदेव अस्ति एकवारं भगिनि तत्र कीर्तन अर्थार्थिनः ये तत्र अर्थं नाम धनस्य आर्ताः इति ट्रबल् इति चिन्तयामि सत्यं
खलु
तत्र कष्टं ये अनुभवन्ति
चतुर्विधेषु भक्तेषु चत्वारः स्तम्भाः सन्ति तत्र प्रथमा यः कष्टमनुभवन्ति द्वितीया यः जिज्ञासः अस्ति यः
तत्र मम पुस्तके तत्र केचन आर्ताः जिज्ञासवः इति दत्तं किन्तु तत्र मध्ये पुनः केचन इति स्थापितुं शक्नुमः यतोहि तत्र जिज्ञासवः भिन्नाः आर्ताः
भिन्नाः
अस्तु
तत्र आर्ताः नाम कष्टं ये अनुभवन्ति ते तदनन्तरं ये ज्ञानं तत्र ज्ञातुम् इच्छन्ति ज्ञानम् इच्छन्ति जिज्ञासवः पुनः अर्थार्थिनः तदनन्तरं तत्र ज्ञानिनः
अस्तु महोदय अवगतम्
जिज्ञासव पूर्वम् अपि केचन अस्ति
न दत्तमस्ति
महोदय मम पुस्तके अस्ति
भवत्याः पुस्तके अस्ति अस्तु इदानीं नूतनमुद्रणे तत् स्थापितं नो चेत् तत्र क्लेशः भवति समीचीनमेव नो चेत् तत्र क्लेशः भवति तत्र चतुर्विधं चतुर्विधम् इति दत्तं किन्तु किमर्थं तत्र केचन इति त्रिवारम् अस्ति इति
मुद्रण दोष
मुद्रण न तत्र एतदपि प्रायशः समीचीनं किन्तु यदि केचन इति पुनः एकवारं स्थापितं चेत् सौलभ्यम् अस्तु इदानीं नरेश महोदय भवति वा
आम् सहस्रे मनुष्येषु कश्चित् जनः एव सिद्धये यतते अत्र सहस्रे मनुष्येषु तत्तु सप्तमी बहुवचनम् अस्ति जनः प्रथमाविभक्ति एकवचनम् अतः कश्चित् प्रथमाविभक्ति एकवचनं कश्चित् जनः एव सिद्धये यतते
अपि पुनः तत्र मनुष्येषु इति अस्ति सहस्रे इति अस्ति किमर्थम्
तत्तु बहुजनाः सन्ति तेषु मध्येषु एकः जनः सिद्धये
समीचीनं किन्तु सहस्रेषु इति नास्ति सहस्रे इति अस्ति खलु
सहस्रे
किं भगिनि
सहस्रे एकवचनम् अस्ति परन्तु अहं चिन्तयामि शतम् अधिकं सर्वे एकवचनम् अस्ति
एकवचनम् एव नित्यम् एकवचनं नित्यम् एकवचनं नियतवचनशब्दः अतः तत्र एकवचनमेव नित्य एकवचनम् अतः शतं वा सहस्रं वा समीचीनम् अतः तत्र सहस्र एव उत्तमम् समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनि
कल्याणकृत् कश्चित् दुर्गतिं न गच्छति दुर्गतिः पुल्लिङ्गपदं
प्रथमं
दुर्गतिं किन्तु कश्चित् इति अस्ति कश्चित्
किन्तु दुर्गतिम् इति द्वितीया एकवचनं
समीचीनं
दुर्गति प्रथमविभक्ति एकवचनं
समीचीनं
तस्य द्वितीया विभक्ति एकवचनं दुर्गतिं अतः कं दुर्गतिं कश्चित् दुर्गतिं
न न किन्तु कश्चित् इति अस्ति तत्र कश्चित् इति
प्रथमाविभक्ति
किमर्थं तत्र विशेषणम् अस्ति विशेष्यं किं कश्चित् इति विशेषणं विशेष्यं किं
दुर्गतिः
न न न कस्यति कल्याणकृत्
कश्चित् कल्याणकृत्
कल्याणकृत् तत्र यः कोऽपि भवतु कल्याणकृत्
कल्याणकृत् कः कल्याणकृत् कश्चित् कल्याणकृत्
समीचीनं भगिनि तत्र कश्चित् कल्याणकृत् दुर्गति
न गच्छति
न गच्छति
महोदय कल्याणकृत् इत्युक्ते किं महोदय
यः यः उत्तमकार्यं कृतवान् तत्र जगतः कृते तत्र उत्तमानि कार्याणि कृतवान् सः कल्याणकृत् सः तादृशपुरुषः तत्र यः कोऽपि पुरुषः तादृशं कृतवान् सः दुर्गतिं न गच्छति अस्तु अग्रे गीताञ्जलि भगिनि
एतानि सुभाषितानि उच्चैः पठत पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि न कथञ्चिन्महीपस्य चित्तान्तः केनचित् क्वचित् अस्तु एकवारं पुनः पठामि पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित्
तत्र प्रथमभागः स्वीकरोतु तत्र पर्यन्तो लभते
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि लभ्यते इति क्रियापदम्
लभ्यते इदानीं तत्र भूमेः इति तत्र किं विभक्ति का तत्र
भूमेः चतुर्थी वा
न न प्रातिपदिकं किं
भूमि न इकार भूमि भूमि ई हरिवत् अस्ति न क्षम्यता मतिवत् अस्ति मतेः इति तु
षष्टि
मति पञ्चमी षष्टि द्वे अपि समीचीनम्
समुद्रस्य
समुद्रस्य तु षष्टि एव
षष्टि अस्तु
गिरेरपि
नपुंसकलिङ्गम् अस्तु इदानीं गिरेरपि इति गिरेरपि
गिरिः इति पुंलिङ्गमस्ति गिरेः अपि षष्टि किन्तु त्रिषु लिङ्गेषु पदानि दत्तानि तत्र भूमिः भूमि तु स्त्रीलिङ्गं समुद्रः तु समुद्रं तु नपुंसकलिङ्गम् इति मन्ये न महोदय
सत्यं सत्यं भगिनि अपि गिरिः
गिरिः पुंलिङ्गं न
गिरेः अपि
गिरेः अपि सर्वे षष्टि एकवचनं
षष्टि एकवचनं लभ्यन्ते पर्यन्तो पर्यन्तः लभ्यन्ते न न लभ्यते इति अग्रे अस्तु समीचीनं भगिनि इदानीं तत्र अग्रे तत्र उषा भगिनी तत्र द्वितीयभागं दृष्ट्वा तत्र किं किम् अस्ति इति वदतु भगिनि तत्र
न कथञ्चित् न कथं योगः चित् न कथञ्चित् नकार आगच्छति पञ्चमवर्णः महीपस्य षष्टिविभक्ति अस्ति चित्तान्तः चित् अन्तः महोदय केनचित् तृतीयभक्तमस्ति क्वचित् इत्युक्ते कुत्रचित् इति वा महोदय?
हा समीचीनं, तत्र नकारः अहं चिन्तितवान् प्रथमभागे तस्य अन्वयः अस्ति इति, किन्तु तद् नास्ति, केवलं द्वितीयभागे एव तत्र तस्य अन्वयः अस्ति. हा अतत्र कथन् कथं योगः चित् कथञ्चित् महीपस्य, महीपः महीपस्य इति तत्र महीपः इति, महीपः इत्युक्ते कः?
राज्ञः अस्ति
वा राजा?
महीपतिः इति अस्ति वा महोदय?
किमर्थं
न राज्ञः इति
राज्ञः इति, राज्ञः इति विभक्ति का तत्र?
षष्टी इति मन्ये महोदय
एकवचने राज्ञः,
परन्तु महीपस्य षष्टि विभक्ति अस्ति.
प्रथमं
एकवचने किं
महीपः, महीपः
महीपः
महीपः नाम राजा, नरप तत्र नृपः, नृपः मही इत्युक्ते भूमि इति खलु, अतः नत्र महीपः, महीपस्य चित्तान्तः,
चित् इत्युक्ते मनः,
तस्य अन्तः चित्तान्तः,
केनचित्
केनचित् क्वचित् कथञ्चित्
क्वचित्,
अतः तत्र कथञ्चित् अस्ति केनचित् अस्ति
क्वचित्
कुत्रचित्,
कुत्रचित्
इति तत्र क्वचित्. समीचीनं भगिनि, अस्तु इदानीं तत्र शोभा भगिनि अग्रे तत्र विवरणम् अस्ति, तत् एकवारं पठतु भगिनि.
आं महोदय, भूमेः सीमा का इति द्रष्टुं शक्यते. समुद्रस्य पर्वतस्य वा अपि सीमा ज्ञातुं शक्यते. परन्तु राज्ञः अधिकारे स्थितस्य मनसि किम् अस्ति इति केनापि कथमपि ज्ञातुं नैव शक्यते. तत्र भूमेः तत्र दत्तमेव वदनीयमस्ति वा महोदय?
किञ्चित् वदतु भगिनि.
भूमेः सीमा इत्युक्ते सीमायाः पर्यायवाचक तत्र अन्तम् अन्तम् अपि द्रष्टुं शक्नुमः. समुद्रस्य पर्वतस्य वा अपि सीमा ज्ञातुं शक्यते. तस्यापि सीमां कर्तुम् अथवा तस्यापि मापनं कर्तुं शक्नुमः, ज्ञातुं शक्नुमः. परन्तु राज्ञः यः राजा अधिकारे अस्ति स्थितः, तस्य मनसि किम् अस्ति इति तु केन प्रयत्नेन अथवा अपि कथम् अपि कृत्वापि ज्ञातुं न एव शक्यते. तस्य मनसि किम् अस्ति इति तु सः एव जानाति,
अथवा सः अपि न जानाति,
सः अपि न जानाति वा?
किन्तु अन्ये अन्ये तु न जानन्ति, सः जानाति न वा इति न जानीमः. समीचीनं भगिनि, अस्तु. हा इदानीं तत्र कथं योगः चित् इति, तत्र कथञ्चित् तदनन्तरं कथञ्चित् पुनः तत्र कथं योगः चित् इति, तत्र अपि केनचित् अपि क्वचित् इति अस्ति, तत्र चित् चन इति तत्र त्रिवारम् आगच्छति. किन्तु किञ्चित् भिन्नः विषयः तत्र कथञ्चित् इति, तत्र कथं योगः चित् तत्र कथं योगः चित् तत्र कथञ्चित् भवति. तदनन्तरं कथञ्चित् योगः महीपस्य इति, तत्र कथञ्चित् तकारः अन्ते अस्ति, मही इति अस्ति, अतः मकारः अस्ति, अतः तत्र
अनुनासिकसन्धिः भवति तत्र,
तत्र कथञ्चिन् महीपस्य इति. इदानीं तत्र किञ्चित् तस्य अभ्यासं कुर्मः ततः. अतः अस्तु अग्रे तत्र प्रिया भगिनी तत्र
महोदय किमर्थं राज्ञः एव दत्तमस्ति महोदय? सर्वेषां मनसि अपि तथैव अस्ति न महोदय? केनपि कथमपि ज्ञातुं न शक्
इति वा भगिनी? अस्तु अस्तु, अतः तत्र सर्वे राजाः सन्ति समीचीनं समीचीनमेव भगिनि अस्तु इदानीं तत्र प्रिया भगिनी इदानीं तत्र कथं योगः चित् तत्र किं भवति
कथं योगः चित् अत्र मकारः चकारस्य पूर्वमागच्छति चेत् कथञ्चित् इति भवति वा
कथञ्चित् इति भवति इदानीं तत्र चिद् योगः मात्र
चिन् मात्र
तकारस्य स्थाने
नकारः
चिन् मात्र इति समीचीनं भगिनि अस्तु नरेश महोदय इदानीं तत्र तद् योगः मात्र किं भवति
तन्मात्र
तन्मात्र इति भवति हा तत्र अनुनासिकसन्धेः उदाहरणानि अस्तु तदनन्तरं तत्र लक्ष्मी भगिनी इदानीं तत्र षट् योगः मुखः
षण्मुखः
षण्मुखः इति भवति समीचीनम् अस्तु गीताञ्जलिभगिनी इदानीं तत्र वाङ् योगः मयं
वाङ्मयं
समीचीनं भगिनि हा अस्तु वाग् योगः मयं वाङ्मयं
वाङ्मयं
वाङ्मयं समीचीनम् अस्तु अग्रे वेदा भगिनी तत्र जागृत् नागरिकः
जागृता जागृन्नारिक तकारस्य
अग्रन्नागरिकः
पञ्चमवर्णमस्ति
हा समीचीनं भगिनि हा अस्तु उत्तमम् अस्तु इदानीम् अग्रे उषा भगिनि अग्रिमं तत्र अग्रिमपुटे
आम् महोदय मिथ्यारूपं न सन्दर्श्यं मिथ्यारूपं न सन्दर्श्यं केनचित् कर्हिचित् क्वचित् यथार्थे अवगते अवगते इति वदामि वा महोदय
पृथक् कृत्वा यथार्थे अवगते अथवा यथार्थे अवगते पृथक् कृत्वा आकारः भवति नो चेत् यथार्थे अवगते
यथार्थे अवगते सद्यो दुर्गतिस्तस्य जायते
दुर्गतिः तस्य
जायते
तत्र प्रथमभागे किं मिथ्यारूपं
न सन्दर्श्यम् एकमेव पदमस्ति केनचित् तृतीयाविभक्त्याम् अस्ति कर्हिचित्
तत् कदाचित् इति अर्थे कदाचित्
कदाचित् अपि कुत्रचित्
हा क्वचित् नाम कुत्रचित् इति समीचीनं भगिनि हा क्वचित् नाम कुत्रचित् समीचीनं भगिनि अस्तु इदानीम् अग्रे प्रिया भगिनी
महोदय कदाचित् कथमस्ति कदाचित् कर्हिचित्
कर्हिचित् इति पदस्य अर्थः कदाचित् इति चिन्तयामि महोदय
अस्तु
कर्हिचित् नाम कदाचित् इति अस्तु
तत्र महोदय यथा वयं वदामः तर्हि तर्हि इति समयस्य किं विशेषणमस्ति तर्हि इत्युक्ते समयानन्तरं तेन कर्हि चित् अपि समयस्य पदमेव न कदाचित्
हा अस्तु भगिनि अस्तु अस्तु तादृश हा चिन्तनं भवितुमर्हति भगिनि हा समीचीनं भगिनि हा कदा इति अर्थः अस्ति तत्र अस्तु अस्तु प्रिया भगिनी अग्रे द्वितीयभागः
केनापि जनेन कदापि कुत्रापि च स्वीयं रूपम् आच्छाद्य मिथ्यारूपं न दर्शनीयं यतः यदा तत् मिथ्यारूपम् अन्यैः अवगतं भवति तदा अस्य दुर्गतिः एव भवति
तत्र केनापि जनेन कदापि कुत्रापि
सर्वस्मिन् पुरतः स्वस्य सत्यरूपमेव दर्शनीयं नो चेत् ते अवगन्तुं
यदा ते अवगच्छन्ति
अवगच्छन्ति तत् सत्यरूपं नास्ति तदा
एतस्य दुर्गति
एतस्य दुर्गतिः भवति
एतस्य दुर्गतिः भवति समीचीनं भगिनि हा तत्र केनापि जनेन कः जनः इति कोऽपि भवतु किन्तु तेन कदापि कुत्रापि च स्वीयं रूपम् आच्छाद्य नाम तत्र आच्छादनं तत्र
आवरणे
हा तत्र नाम तत्र न दर्शयित्वा अदर्शयित्वा तत्र हैड् इति तत्र तत्र आच्छाद्य मिथ्यारूपं न दर्शनीयं यतः यदा तत् मिथ्यारूपम् अन्यैः अवगतं भवति तदा अस्य तत्र जनस्य दुर्गतिः एव भवति तत्र तत्र दुर्गतिः तस्य जायते तत्र सद्यः दुर्गति तस्य जायते सद्य नाम तत् क्षणमेव दुर्गतिः तस्य तदा नाम तत् सद्यः दुर्गतिः तस्य जायते किन्तु तथा यथार्थे अवगते तत्र किमस्ति तत्र
यथा अर्थे अवगते
यथार्थे इति विभक्ति का तत्र
सप्तमी विभक्ति
सप्तमी अवगते अपि सप्तमी
ओ अत्र एतत् अस्ति वा महोदय सतिसप्तमी
अस्ति भगिनि यदा यथार्थः अवगतः यथार्थः नाम यद् अस्ति नाम सत्यज्ञानं यथार्थज्ञानम् इति वदामः सत्यमस्ति तद् यथार्थज्ञानं तत् यथार्थं नाम सत्यं यदि अवगतः यथार्थः अवगतः भवति नाम सत्यं किम् इति यदि अवगतं भवति अतः तत्र यदा इति स्थाने यदा यथार्थः अवगतः इति न वदामः किन्तु यथार्थे अवगते इति सतिसप्तमीरूपं समीचीनं भगिनि हा अत्र यथार्थे अवगते सतिसप्तमी अस्तु अग्रे नरेश् महोदय अग्रिम
महोदय
कदाचित् इति अर्थः
कदाचित् इति अर्थः
क्वचित् इत्युक्ते कुत्रचित् इति अर्थः
क्वचित् इति कुत्रचित् इति
ओ अस्तु
अतः तत्र कुत्रापि भवतु कदापि भवतु केनापि भवतु तत्र सत्यरूपमेव स्वीयं रूपमेव दर्शनीयम् इति धन्यवादः
न कश्चिदपि जानाति किं कस्य श्वः भविष्यति अतः श्वः करणीयानि कुर्याद्यैव अद्य एव बुद्धिमान्
इदानीं तत्र प्रथमभागं स्वीकरोतु तत्र किं किम् अस्ति इति वदतु
प्रथमभागे न कश्चित् अपि जानाति न जानाति किं कस्य श्वः भविष्यति श्वः किं भविष्यति कोऽपि न जानाति
किं श्वः किं भविष्यति इति कस्य किं श्वः भविष्यति इति न कोऽपि न कश्चिदपि
जानाति
समीचीनं महोदय इदानीं तत्र द्वितीयभागे तत्र चित्चन इति अस्ति वा द्वितीयभागे
एक तत्र कश्चित् अपि कोऽपि तत्र किमपि भेदः नास्ति न महोदय अर्थे न कोऽपि जानाति
किन्तु भगिनि तत्र कोऽपि न जानाति तत्र नकारः अस्ति चेत् प्रायशः तत्र भेदः नास्ति किन्तु नकारः नास्ति चेत् कश्चित् आगच्छति कोऽपि आगच्छति इति न वदामः खलु
कोऽपि कोऽपि आगच्छति इति न वदामः महोदय,
कोऽपि आगच्छति इति
किमर्थं
अहं चिन्तयामि, चिन्तयामः
अस्तु, अस्तु नास्ति चेत्, नास्ति चेत् समीचीनं, किन्तु
अस्तु भगिनि
अन्यथा
चिन्तयित्वा वदामि भगिनि, तत्र अस्तु अस्तु अस्तु, तत्र कोऽपि जानाति वा इति तत्र तत्तु तादृशप्रयोगः अहम् अहमेव बहुवारं करोमि, कोऽपि जानाति वा इति, अतः तत्र कश्चित् जानाति, हा तत्र प्रश्ने तत्र कोऽपि जानाति वा इति भवति भगिनि, तत्र किन्तु कश्चित् आगतवान्, तत्र कोऽपि आगतवान्, हा प्रायश तदपि भवति, कोऽपि आगतवान्, सत्यं भगिनि, हा हा कोऽपि कोऽपि आगतवान्, किन्तु तत्र कश्चित् आगतवान् प्रायशः समानार्थकम् इति मन्ये भगिनि, सत्यम्,
अपि च कश्चन कश्चन वदतु इति अपि
कश्चन कश्चित् समानमेव खलु,
न इति शक्यते महोदय, समीचीनं वा कश्चन वदतु इत्युक्ते वर्गे कोऽपि वदतु तु वयं सर्वदा
इति एव इति एव, अतः तत्र
कश्चन वदतु इति समीचीनं महोदय,
कश्चन
महोदय तत्र
निर्णयः नास्ति, कश्चित् कश्चन निर्णयः नास्ति,
समानेव कोऽपि अपि कोऽपि अपि समानेव इत्युक्ते निर्णयः नास्ति तत्र
तत्र अवधेयम् इत्यस्मिन् दत्तमस्ति महोदय, विशेषणत्वेन उपयुज्यन्ते इति, कश्चित् काचित् किमपि एतादृशानि पदानि तत्र कश्चित् वदति इति भवति वा महोदय, तत्र विशेषणत्वेन एव भवति किल,
न न कश्चित् वदति इति वक्तुं शक्नुमः भगिनि, तत्र कश्चित् वदति, कश्चित् वदति किन्तु तत्र
कश्चित् कोऽपि अस्तु,
हा कश्चित्, अतः तत्र प्रायशः पूर्णं समानमिति न
तत्र एम्फसिस् अस्ति इति मन्ये महोदय, कश्चित् अपि न जानाति इति वदने, अपि च कोऽपि न जानाति तत्र
भेदः अस्ति इति मन्ये, भेदः इति अस्ति इति मन्ये भगिनि, किन्तु तत्र कः भेदः इति तत्र अतः तत्र अतः केवलं हास्यार्थं गीताञ्जलि भगिनी, तत्र कोऽपि अपि कश्चित् तयोः मध्ये भेदः अस्ति, कश्चित् भेदः अस्ति अथवा कोऽपि भेदः अस्ति इति न जानामि, किन्तु भेदः अस्ति इति सूक्ष्मभेदः अस्ति इति मन्ये भगिनि तत्र, किन्तु सम्यक्तया न वक्तुं शक्नोमि भगिनि, एकवारं पृच्छामि भगिनि तदनन्तरं वदामि,
धन्यवादः,
हा अस्तु अस्तु, इदानीं तत्र हा लक्ष्मी भगिनी अग्रे तत्र द्वितीयभागे तत्र अतः श्वः,
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्,
हा तत्र
कुर्यात्
क्रियापदं किं, हा कुर्यात् कुर्यात् विधिलिङ्ग् विधिलिङ्ग् कुर्यात् स्यात् कुर्यात् कर्तृपदम्
आं श्वः करणीयानि कुर्यात्
कुर्यात् कर्तृपदं किं,
करणीयानि कार्याणि,
हा तत् कर्मपदं, किन्तु कर्तृपदं किं,
कर्तृपदं बुद्धिमान्,
हा बुद्धिमान् कुर्यात् बुद्धिमान् कुर्यात् किं कुर्यात् श्वः करणीयानि कार्याणि,
करणीयानि कार्याणि अद्य एव
कुर्यात्
कुर्यात्
अद्य एव कुर्यात् समीचीनं, हा समीचीनं भगिनि अस्तु, तत्र
क्षम्यतां यत् शोभाभगिनी प्रश्नः पृष्टवती तत्र कः कश्चित् अपि च कोऽपि मध्ये कः भेदः न,
वदतु भगिनि.
तत्तु कश्चित् इति अनिश्चितार्थः अस्ति महोदय. तत्र न जानामि कति जनाः सन्ति कुत्र सन्ति ये तु, परन्तु कोऽपि इति यत् जानाति, यदि कक्षायां दशजनाः सन्ति तत् कोऽपि वदतु इति वदति चेत्, तत्र भवान् वदति चेत् तत्र जानाति कति जनाः सन्ति. कश्चित् तु न जानाति कति जनाः सन्ति, कुत्र सन्ति, कदा भविष्यन्ति, एतत् अनिश्चितार्थः अस्ति तत्र.
सत्यं भगिनि, किन्तु तत्र कोऽपि आगतवान् कश्चित् आगतवान् इति तत्र तादृशप्रयोगे तत्र भेदः नास्ति इति चिन्तयामि भगिनि. अथवा तत्र कोऽपि न जानाति अपि कश्चित् अपि न जानाति तत्र समानार्थक इति.
किन्तु तत्र तु जनाः तत्र तु निश्चितार्थः अस्ति महोदय. तत्र दशजनाः न जानन्ति, कोऽपि न जानन्ति.
न न भगिनि, तत्र कोऽपि इत्युक्ते तत्र कति जनाः इति न, कः एषः इति तत्र खलु. तत्र निश्चितार्थक नाम कथं कति इति न, किन्तु कः इति. अतः तत्र कोऽपि न जानाति इत्युक्ते न कोऽपि जानाति, अपि कश्चिदपि न जानाति नाम यः कोऽपि स्वीकरोतु किन्तु सः न जानाति एव. अतः तत्र तत्र प्रायशः भेदः नास्ति इति चिन्तयामि भगिनि. अतः एव अहम् उक्तवान् अस्तु, सः सम्यक्तया न जानामि.
अवगमनम् आसीत् न जानामि तत्र.
अतः सत्यम्, अहं न जानामि भगिनि. अतः तत्र प्रायशः सामीप्यम् अस्ति किन्तु सामान्यं नास् तत्र समानं नास्ति इति मन्ये.
भेदः तु अस्ति एव यतोहि.
सत्यं सत्यं, किन्तु तत्
महोदय
सम्यक्तया वक्तव्यमस्ति. अतः वदतु भगिनि.
तत्र कोऽपि इत्युक्ते तत्र निर्णयेन वक्तुं शक्नुमः कोऽपि न जानाति इति. कश्चिदपि न जानाति इत्युक्ते तत्र यथा भवती उक्तवती तत्र अनिश्चितार्थक अस्ति. प्रायशः कोऽपि न जानाति इति भवति वा इति महोदय. कोऽपि न जानाति इत्युक्ते तत्र स्टेट्मेण्ट् भवति कोऽपि न जानाति इति. कश्चिदपि न जानाति इत्युक्ते प्रायः कोऽपि न जानाति इति भवति वा.
न न न भगिनि, तत्रापि न कोऽपि एव, यतोहि तत्र अत एव तत्र भगवद्गीतायाः श्लोकेषु तत्र कश्चित् केनचित् तत्र दुर्गतिः तत्र कल्याणकृत् कश्चित् दुर्गतिं न गच्छति. तत्र यः कोऽपि भवतु, यदि सः कल्याणकृत् अस्ति सः दुर्गतिं न गच्छति. तत्र निश्चयः अस्ति कः कल्याणकृत् अस्ति इति न जानीमः, किन्तु सः यः कोऽपि भवतु किन्तु सः दुर्गतिं न गच्छति एव इति. अतः तत्र कल्याणकृत् कोऽपि दुर्गतिं न गच्छति, कल्याणकृत् कश्चित् दुर्गतिं न गच्छति, तत्र समानम् इव दृश्यते भगिनि. भगवद्गीतायां तत्र चिच्छन इति उपयोगम् अस्ति निश्चितार्थके, नाम तत्र केवलं तत्र ऊहा इति नास्ति खलु. अतः मम चिन्तनं
तत्र तु अनिश्चितार्थक न भवति.
न न, अनिश्चितार्थक इत्युक्ते कः इति अनिश्चितता तत्र न जानीमः, कः इति न जानीमः. किन्तु तत्र न कोऽपि इत्युक्ते नोबडी, न कश्चिदपि तत्र नो वन् इति अर्थे खलु तत्र. हा, तत्र समानार्थक इव दृश्यते भगिनि. हा, किन्तु एकवारं पृष्ट्वा एव वक्तव्यम् इति चिन्तयामि.
अस्तु
अस्तु, तर्हि तत्र हा गीताञ्जलि भगिनी, अत्र अर्थः कः इति दत्तमस्ति, तत् एकवारं पठतु भगिनि कस्यापि. गीताञ्जलि भगिनी,
आं महोदय, क्षम्यताम्. अस्तु, केनापि जनेन कदापि कस्यापि जनस्य श्वः किं भविष्यति इति कोऽपि न जानाति. हा सत्यं कृतवा एव.
अस्तु
कस्यापि जनस्य
अत्र तु तत्र भगिनि कश्चित् अपि जानाति किं कस्य श्वः भविष्यति. तत्र न कोऽपि इति एव दत्तम् अस्ति.
तत्र
कश्चिदपि अपि न
किन्तु नास्ति
महोदय. अतः न अस्ति चेत् इति तु सत्यमिति मन्ये. अत्र दत्तमस्ति
किन्तु नास्ति चेत् तु
पश्यामः. अस्तु इदानीं तत्र कस्यापि जनस्य
श्वः किं भविष्यति इति कोऽपि न जानाति. अतः बुद्धिमान् जनः श्वः करणीयानि कार्याणि अद्यैव कृत्वा समापयेत्. तत्र विधिः
केवलं तत्र अद्य एव आरम्भं करोति इति न कुर्यात् इति न, किन्तु अद्यैव कृत्वा समापयेत्.
हा समापयेत् अपि ये ये कार्याणि करणीयानि श्वः ते सर्वे
तानि
सर्वाणि कृत्वा समापयेत् इति इति बुद्धिमान् जनः अस्ति.
यः यः एतत् कर्तुं शक्नोति सः
बुद्धिमान्
अस्ति. समीचीनम् अस्तु. इदानीम् अग्रे तत्र वेदा भगिनी अग्रे भगवद्गीतायाः श्लोकः.
आम् महोदय. न जायते म्रियते वा कदाचन नायं भूत्वा भविता वा न भूयः. अजो नित्यः शाश्वतोऽयं पुराणो न अन्यते अन्यमाने शरीरे. न जायते म्रियते
वा
न जायते म्रियते वा कदाचित् न अयम्.
हा कदाचित् पुनः तत्र न
अयम्
अस्ति. अतः तत्र कदाचिन् अयम् कदाचित् न अयम्
भूत्वा भविता वा न भूयः.
हा
इत्युक्ते किं वदामि, न जायते इत्युक्ते
तस्य जननं न भवति. जन्म नास्ति तस्य. जन्म
नास्ति. मृत्यु अपि नास्ति. न जायते म्रियते वा कदाचित् अनायं भूत्वा भविता वा न भूयः. किं वदति कदाचित् न अयं
तस्य जननमपि नास्ति मरणमपि नास्ति अपि तस्मिन् अपि तत्र अन्ये तत्र अन्ये भागाः तत्र अवयवाः तत्र तेषामपि तत्र जननं मरणं वा तस्मिन् आत्मनि न भवति.
ओ भूत्वा भविता वा न भूय
तदपि तत्र न भवति. तत्र आत्मनः जननमपि नास्ति मरणमपि नास्ति अपि आत्मनः अवयवाः अपि तत्र अस्तु एतत् भागस्य मरणं तत्र इदानीम् अभवत् इदानीं न अस्ति इति तत् तादपि
नास्ति
नास्ति इति. अस्तु तत्र चित्तनप्रयोग भविता. अस्तु समीचीनम्. अस्तु अग्रे उषा भगिनी द्वितीयभागः तत्र अचो नित्यः. अस्तु तत्र शोभो भगिनी अग्रिमभागः.
अजो नित्यः शाश्वतोऽयं पुराणे न हन्यते हन्यमाने पुराणो न हन्यते हन्यमाने शरीरे. अजो तत्र अजः नित्यः शाश्वतः अयं पुराणः न हन्यते हन्यमाने शरीरे.
तत्र अजः इति
अजः इत्युक्ते न जायते इति एव.
तत्र अजः
जन्मः नास्ति. अजः इति तत्र विरुद्धार्थक नैसमासः. नित्यः इत्युक्ते तस्य
शाश्वतः
शाश्वतः तस्य मरणं नास्ति, अन्तं नास्ति इति. शाश्वतः अयं शाश्वतः अपि च अपि तत्र तस्य
तत्र नित्यः अपि शाश्वतः तत्र प्रायश
भिन्नः अस्ति महोदय. नित्यः इत्युक्ते सर्वदा अस्ति इति. शाश्वतः इत्युक्ते तस्य अन्तं नास्ति, अन्तं न भवति,
तस्य परिवर्तनं मध्ये न भवति.
परिवर्तनं अस्तु
तत्र
परिवर्तनं नास्ति
नास्ति इति. तत्र शाश्वतं नाम कान्स्टेण्ट्, अपि नित्यं नाम एटर्नल्.
पुराणो पुराणः तत्र पुराणः इत्युक्ते सनातन इति.
सनातनकालात् अस्ति,
सनातनकालात् अस्ति. अपि च न हन्यते, न हन्यते इत्युक्ते तस्य नाशं न कर्तुं शक्नुमः, नाशं न भवति केनचित् अपि. हन्यमाने शरीरे, किन्तु शरीरः तु हन्यमानम् अस्ति. तस्मिन् हन्यमानं हन्यमाने शरीरे अस्ति कृत् किं स्थित्वा अपि तस्य तु हननं, तस्य तु मरणं न भवति,
हननं न भवति,
हननं न भवति.
अतः तत्र
आत्मा इत्यस्य विषये,
आत्मा इति विषयः समीचीनं,
ब्रह्मन् अथवा आत्मा इति विषये उक्तं
समीचीनं. समीचीनं भगिनि, अस्तु. अग्रे प्रिया भगिनि.
न दत्ते कस्यचित् पापं न चैव सुकृतं विभुः. अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः. अत्र अस्ति न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः. अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति. इत्युक्ते यः विभुः अस्ति इत्युक्ते भगवान् यः अस्ति, सः कस्यापि कृते पापं न ददाति, पुण्यमपि न ददाति. यः अज्ञानः अस्ति, ते ज्ञानस्य अभावे अत्रापि अत्र भ्रमिताः भवन्ति.
समीचीनं भगिनि. मुह्यन्ति नाम भ्रम, तेषां भ्रमः भवन्ति. तत्र जन्तवः मुह्यन्ति तेन, तत्र तेन इत्युक्ते आवृतम् अस्ति इति कारणेन ते भ्रमिताः भवन्ति. तत्र किम् आवृतम् अस्ति? ज्ञानम् आवृतम् अस्ति. अतः तत्र आवृतं ज्ञानम्, अतः तत्र ज्ञानस्य दर्शनं न प्राप्तम् इति कृत्वा तत्र जन्तवः मुह्यन्ति. समीचीनं भगिनि. तत्र अपि तत्र कस्यचित्, कस्यचित् इति चिञ्चन पदमस्ति. कस्यचित्, समीचीनं भगिनि. अस्तु,
क्षम्यतां महोदय, म्यूट् मध्ये स्थित्वा एव पठितवती. अनन्तरं
ओ अस्तु अस्तु भगिनि, अस्तु भगिनि. अतः तत्र अन्तिमं तत्र सूक्तिः इति पठतु भगिनि तर्हि.
आं महोदय, सूक्तिः असतां सङ्गदोषेण साधवो यान्ति विक्रियाम्. असतां सङ्गदोषेण साधवो यान्ति विक्रियाम्. सूक्तिः असतां सङ्गदोषेण इत्युक्ते यथा सङ्गं दोषेण
तृतीया, किन्तु असताम् इति पदस्य विभक्ति का?
असताम् इयम् अस्ति वा महोदय, इयं पदस्य?
तत्र सङ्गदोष दोषेण इति अस्ति, दोषः इति अस्ति चेत्
अस्तु ताम्
षष्टिविभक्ति
षष्टि असतां सङ्गदोषेण
साधवो इत्युक्ते साधवः
साधवः साधुः इति पदस्य बहुवचनं साधवः यान्ति
यान्ति विक्रियां
हा विक्रियां यान्ति यान्ति नाम गच्छन्ति
गच्छति
गच्छन्ति हा गच्छन्ति बहुवचने गच्छन्ति केन केन गच्छन्ति तत्र केन कारणेन सङ्गदोषेण सङ्ग तत्र तैः सह सङ्गः भवति तेन सङ्गदोषेण साधवः यान्ति कस्य सङ्गः कस्य सङ्गः असतां नत्र नाम सत् सत् नास्ति हा सत्यं असत् असत् इति तत्र यत् सत्यं नास्ति तस्य सङ्गदोषेण साधवः यान्ति विक्रियां विक्रियामिति कर्मपदम् विक्रियां यान्ति गच्छन्ति तत्र
किम् अस्ति महोदय
विक्रियाम् इति तत्र प्रायशः तत्र केवलं
विकृति वा विकृति वा
भवितुमर्हति भगिनि तत्र विक्रियां तत्र
विकृति इति
न भगिनि तत्र विक्रियाम् इति नामपदम् अस्ति
तत्र यान्ति इति क्रियापदमस्ति
यान्ति इति क्रियापदं यान्ति इति क्रियापदं तत्र गच्छन्ति विक्रियाम् इति तत्र विक्रियाम् इति तत्र अहं केवलं तत्र वाक्यं दृष्ट्वा चिन्तितं तत् किमपि दुर्गति इति तादृशं भवति इति किन्तु तत्र विक्रियाम् इति न जानामि भगिनि तत्र विक्रियाम् इति इत्युक्ते किम् इति
परिवर्तनम्
इति ट्रान्स्फार्मेशन् इति दत्तमस्ति
इति वा विक्रिया नाम ट्रान्स्फर्मेशन् वा ट्रान्स्फर्मेशन् इति तत्र
सत्पुरुषाः अपि असतां भवन्ति असतः
किं भगिनि असताम् इति
असतां सङ्गदोषेण साधवः सत्पुरुषः अपि
ओ अस्तु 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 अतः तत्र यान्ति नाम तेषां परिवर्तनं ते परिवर्तिताः भवन्ति अस्तु 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 समीचीनं हा उत्तमं धन्यवादाः अस्तु
महोदय एतदपि अस्ति वा यान्ति इत्युक्ते गच्छति ततः परिवर्तनस्य मार्गे गच्छन्ति
सत्यं भगिनि हा परिवर्तनं प्राप्नुवन्ति इति नाम तत्र सत्यं भगिनि हा यान्ति नाम प्राप्नुवन्ति इति अर्थे एव सत्यं भगिनि
तत्र ते महोदय अमराः न भवन्ति
इति
यदि सत्यमार्गे चलन्ति चेत् मुक्तिः भवति अपि च जननमरणस्य चक्रेण मुक्तिः भवति परिवर्तनम् इत्युक्ते पुनः पुनः आगच्छन्ति अपि च इति अपि अस्ति वा महोदय तत्र
प्रायशः भगिनी न जानामि तत्र
हा मार्गे सन्ति किन्तु सङ्गदोषेण असतां सङ्गदोषेण पुनः परिवर्तनस्य चक्रे पुनः आगच्छन्ति यान्ति इति
हा इति प्रायशः तदपि भवितुम् अर्हति भगिनि
अमराः इत्युक्ते तत्र परिवर्तनं नास्ति
सत्यम् अस्तु भगिनि तदपि प्रायशः भवितुम् अर्हति तत्र गभीरः श्लोकः अस्ति
इति मन्ये इति भाति
महोदय तत्र न जायते क्रियते तु आत्मनः विषये महोदय तत्र कश्चित् पुरुषः विषये नास्ति
आत्मनः एव
आत्मनः विषयः सत्यं भगिनि हा 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 लोके तु आत्मनः विषयः इदानीं तत्र केवलं सूक्तिः तत्र तु साधवः इति अस्ति हा
तत्र तु भिन्नः अस्ति न
सत्यं सत्यं भगिनि असताम् असताम् इति तत्र जनाः जनानां हा असतां जनानां सङ्गदोषेण साधवः
इत्युक्ते
सत् नास्ति
सत् नास्ति तत्र जनाः भवतु जनानां वा विषयानाम् अपि
वक्तुं शक्नुमः वा असताम् इत्युक्ते दुर्जनाः
न भगिनि तत्र
सज्जनाः नास्ति इति मन्ये तत्र सत्सङ्गः भवेत् इति सर्वत्र उक्तं सत्सङ्गे भवतु इति तत्र असत्सङ्गः भवति
इति समीचीनं
असत्सङ्गः
अस्तु
सत्य नास्ति चेत् असत्येव असत्य इत्युक्ते दुष् किं वदामि
सत्यस्य मार्गे न सन्ति अधर्मस्य मार्गे असत्यस्य मार्गे इति
अतः प्रायशः समीचीनमेव अस्ति तत्र अस्तु तर्हि अस्तु समयः अपि जातः अस्तु
क्षम्यतां
क्षम्यतामः वा
वंशीसुतं भगिनी तदनन्तरं गीताञ्जलि भगिनी वंशीसुतं वदतु
कस्यापि अधुना अद्य व्यवस्थापनं नास्ति वा अद्य
न भगिनी अग्रिमं भवत्याः एव इति मन्ये नवम्बर् ट्वेल्त्
मध्ये कस्य प्रिया भगिन्याः आसीत् किल तत् अभवत् वा
न न तत्र दिनाङ्कस्य परिवर्तनं कृतम् इति मन्ये किन्तु दिनाङ्कः दिनाङ्कः न दत्तं दिनाङ्कः लिखितं वा दिनाङ्कः लिखितः वा भगिनि तत्र
अक्टोबर् मासस्य एकः कस्य नाम इति न जानामि परन्तु दत्तमस्ति तत्र महोदय
किं
सूची प्रेषितवान् न तां
किन्तु तत्र प्रिया भगिनी भवती कदा कर्तुम् इति लिखितवती वा
पूर्वं लिखितवती महोदय परन्तु नवरात्रि
नवरात्रि सत्यं सत्यं
अनन्तरं करोमि महोदय
किन्तु तत्र केवलम् अहं किमर्थं पृष्टवान् अद्य भवत्याः आसीत् वा इति अस्तु 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 यदि आसीत् चेत् अहं तत्र न दृष्टवान् इति तावदेव अस्तु धन्यवादः भगिनि अस्तु अतः वंशीसुत भगिनी भवत्याः एव अग्रिमम् इति मन्ये भगिनि
एवं वा अस्तु
नवम्बर् हा नवम्बर् ट्वेल्त् खलु अथवा सेवेन्त्
विस्मृतवती महोदय क्षम्यतां
एकवारं पश्यामः
नवम्बर् मासे अस्ति
नवम्बर् मासे एव अस्ति नवम्बर् मासे
स्मरामि परन्तु पश्यामः अहं चिन्तितवती मम पुरतः कोऽपि अस्ति
किन्तु तदनन्तरं नवरात्रि इति कारणात् तत्र परिवर्तनम् अस्तु भगिनि धन्यवादः अस्तु गीताञ्जलि भगिनि
महोदय तत्र तत् विषये एव अज्ञानस्य विषये अज्ञानः जनः इत्युक्ते भ्रमितः न महोदय तदेव
सत्यम्
इत्युक्ते दुष्टः तु नास्ति भ्रमितः एव
भ्रमितः इति अपि चिन्तयितुं शक्नुमः सत्यं भगिनि
इति एव
सत्यं भगिनि अस्तु तर्हि तत्र लक्ष्मी भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
अस्तु महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः भगिनि सर्वे सर्वेषां
धन्यवादः
नमस्कारः अग्रिमवर्गे मिलामः नमस्कारः
धन्यवादः महोदय नमस्कारः